एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली कालीकण्डकी तटीय प्रसारण प्रणाल्याः अन्तर्गताम् खुर्कोट दाना प्रसारण प्रणालीम् संयोजनोपकेन्द्रम् च ह्य उद्घाटयत्। पर्वत जनपदस्य कुस्मा नगरपालिकायाः द्वितीयवडा क्षेत्रवर्तिनी खुर्कोट स्थाने आयोजितम् उद्घाटन समारोहम् प्रधानमन्त्री निवासात् बालुवाटार स्थान संगणकीय प्रविधिना सम्बोधयन् प्रधानमन्त्री ओली अवोचत् नेपाल भारतात् विद्युत् क्रयणस्य स्थितेः विक्रयणस्य अवस्थायम् प्राप्तो वर्तते। प्रधानमन्त्री ओली अकथयत् नेपालः सम्प्रति ऊर्जसि परनिर्भरः सन्नपि आगामिषु कतिचित् वर्षेषु निर्यातयोग्य राष्ट्रस्य रूपेण स्थापितो भविष्यति। द्विसहस्रतम विक्रम वर्षस्य आश्विन मासे आत्मनः प्रधानमन्त्री पदासीनावस्थायं देशे षोडश घण्टाः यावत् विद्युद्भार न्यूनीकरणं जायमानम् आसीत् इति स्मरन् प्रधानमन्त्री ओली इदानीं विद्युद्भार न्यूनीकरणस्य अन्तः स्वयमेव गौरवस्य विषयोऽस्ति इति अभासत। प्रधानमन्त्री ओली अवदत् देशस्य अर्थतन्त्रस्य उन्नयनस्य राजनीतिक समस्यानां समाधानस्य कूटनीतिक सम्बन्धस्य सबलीकरणस्य च दिशि सर्वकारः दृढतया सक्रियो वर्तते। कार्यक्रमे ऊर्जो जलस्रोत सिंचन मन्त्री टोप बहादुर राय माझी अगदत् जलस्रोतसाम् अधिकरणात्मिक्याः प्रवृत्तेः अन्ताय द्वासप्तत्यधिक द्विसहस्रतमे विक्रमवर्षे ऊनशत सूत्रीय मार्ग निर्देशनम् निर्माय अग्रे प्रवर्धनमनु बह्व्यः विद्युदायोजनाः गतिशीलाः सन्तीति प्रावोचत्। आयोजनायाः निर्माणे आसन्नाब्जत्रयम् रूप्यकाणि व्ययीभूतानीति नेपाल विद्युत् प्राधिकरणस्य निमित्त कार्यकारी निर्देशकः हितेन्द्र देवसाक्यः अज्ञापयत्। प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षश्च केपी शर्मा ओली प्रचण्ड नेपाल समूहस्य गतिविधिभि वामान्दोलनम् एव कलंकितमस्तीति आरोपयति। अखिल नेपाल कृषक महासंघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली प्रचण्ड माधव समूहस्य गतिविधयः लोकतन्त्रस्य वामैकतायाश्च विरोधिनः सन्तीति आरोपयत्। प्रधानमन्त्री ओली भूमिहीन कृषकाणां समस्यां समाधातुम् आत्मभिः प्रतिवारं सर्वकारस्य सञ्चालना अवस्थायां प्रयासाः विहिताः सन्तोऽपि दलस्य नेतॄणाम् असहयोगस्य कारणेन साफल्यं न प्राप्तमिति अन्ववेदयत्। कार्यक्रमे कृषि पशुपक्षि विकास मन्त्री पद्मा अर्यालः अस्य वर्षस्य गोधुम कृष्यै आगामिने वर्षाकालस्य धान्य कृष्यै च आवश्यक रासायनिक मलस्य आयातस्य भण्डारणस्य च व्यवस्था विहिता आगामि दिनेष्वपि नियमित रूपेण आयातस्य व्यवस्था च विहितेति अज्ञापयत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलेन अद्य काष्ठमण्डपे जनसभा आयोज्यमानास्ति। अराजकतायाः अन्त्यं विदाय भौगोलिक्याः अखण्डतायाः संविधानस्य च रक्षणेन सह विकास समृद्ध्यर्माध्यमेन राजनीतिक स्थायित्वाय नवीन जनादेशः इति समाघोषेण नारायणीटी प्रासादस्य अग्रे नेकपा दलेन जनसभा आयोज्यते। अद्य मध्याह्नस्य द्वादशवादनात् आयोज्यमानायां सभायां दलाध्यक्षः प्रधानमन्त्री च केपी शर्मा ओली उपप्रधानमन्त्री ईश्वर पोखरेलः गृहमन्त्री रामबहादुर थापा चेति नेतारः सम्बोधयन्तः सन्तीति ज्ञापितं वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रचण्ड नेपाल समूहेन ह्य आयोजितः अशेष कार्य विरामः साधारण घटनया विना शान्तिपूर्ण आसीत् इति गृह मन्त्रालयेन ज्ञापितं वर्तते। काष्ठमण्डप उपत्यकायामपि अशेष कार्य विरामस्य सामान्यतः प्रभावो दृष्टः पिधानकारिभिः विभिन्नेषु स्थानेषु अवरोधे सृष्टेऽपि सुरक्षाकर्मिभिः गमनागमनम् सहजीकृतम् आसीदिति काष्ठमण्डप महानगरीय प्रहरी परिसरस्य प्रवक्ता रमेश बस्नेतः अज्ञापयत्। एवमेव उपत्यकायाः बहिस्थेषु जनपदेष्वपि फुटघटनया विना अशेष कार्य विरामः शान्तिपूर्णः सम्भूत इति आस्मा किनाः संवाददातारो ज्ञापयन्ति। राष्ट्रिय मानवाधिकारायोगेन अशेष कार्य विराम प्रवृत्तिभिः विरोधस्य कार्यक्रमैः नागरिकाणां मानवाधिकाराणाम् उपभोगे बाधा सृज्यते इत्यतो वार्तायाः माध्यमेन समाधानम् अन्वेष्टुम् अनुरुद्धमस्ति। आयोगस्य प्रवक्त्रा डाक्टर टीकाराम पोखरेलेन ह्यः प्रकाशितायां विज्ञप्तौ वार्ताया संवादेन च समाधानम् अन्वेष्टुम् अशेष कार्य विरामस्य आह्वानकर्तारः अनुरुद्धाः सन्ति। संचार सूचना प्रविधि मन्त्री पार्वत गुरुङ निगदति जनविश्वासस्य विजय प्राप्ते शैल्या नेपाल दूरसञ्चार संस्थानेन कार्याणि विधातव्यानि। नेपाल दूरसञ्चार कम्पनी नेपाल टेलिकम संस्थानस्य सप्तदश वार्षिकोत्सवस्य अवसरे गतदिने काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री गुरुङ अगदत् दक्षतायां सेवाया गुणस्तरीयतायाञ्च संस्थानेन बलं प्रदेयम्। कार्यक्रमे नेपाल टेलिकम संस्थान संचालक समितेः अध्यक्ष संचार सूचना प्रविधि मन्त्रालयस्य सचिवश्च हरिप्रसाद वस्याला अकथयत् नेपाल टेलिकम संस्थानेन जनानुवेदनं सम्बोध्य अग्रेसरेण भाव्यम्। नेपाल टेलिकम संस्थानस्य प्रबन्ध निर्देशकः दिल्लीराम अधिकारी जनापेक्षायाः समयस्य याचनायाश्च अनुसारेण टेलिकम संस्थानस्य रूपान्तरणं विधातुं प्रतिबद्धताम् अभिव्यनक। अर्थमन्त्रिण विष्णुप्रसाद पौडेलेन सुरक्षण कोष क्षेत्रे स्थितां समस्यां समाधातुं सक्रियेण प्रवर्तनाय स्वीय कार्यकाले सुरक्षण कोष क्षेत्रस्य उपलब्धि प्रदर्शनत्वेन कार्यं कर्तुं नवीन नेतृत्वं निर्दिष्टं वर्तते। सुरक्षण कोष समितेः नवनियुक्तस्य अध्यक्षस्य ह्य मन्त्रालये आयोजिते पदगोपनीयतयोः शपथग्रहण समारोहे अर्थमन्त्री पौडेलः एवं निरदिशत्। नेपाले कोरोना विषाणो संक्रमणात् ह्य 27,102 जना स्वस्थतां प्राप्नुवन्। ह्य आराष्टं 1,603 अष्टशतस्य 877 निदर्शनानां परीक्षणेन 170,100 जनेषु कोरोना संक्रमणं पुष्टिभूतम्। कोरोना संक्रमणस्य कारणेन गतदिने 2 जनौ मृतौ। अनेन सह संक्रमणस्य कारणेन नेपाले मृतानां जनानां संख्या 33,000+ प्राप्ता अस्ति। अत्रान्तरे स्वास्थ्य मन्त्रालयेन प्राथमिकतायां समाविष्टः व्यक्तिः टीकाकरणात् न वञ्चयितुं सम्बद्ध टीकाकरण केन्द्राणि निर्दिष्टानि सन्ति। मन्त्रालयेन विज्ञप्तेर्माध्यमेन सूचनां प्रणाल्याम् अपञ्जीभूताः व्यक्तिः टीकाकरणसेवातो न वञ्चयितुं सम्बद्ध स्वास्थ्य परिषदः मेडिकल काउन्सिल चिकित्सा परिषदश्च पञ्जीकरण प्रमाणपत्रं परिचयपत्रं च गृहीत्वा आगतानां व्यक्तीनां कृते सम्बद्ध टीकाकरण केन्द्रेण टीकाकरणस्य व्यवस्थां विधातुं च निर्दिष्टं वर्तते। पाठ्यक्रम विकास परिषदा एकादश द्वादश कक्षयो गणित विषय अनिवार्य भवितोऽस्ति। माध्यमिक स्तरे गणित विषये न स्थापिते विद्यार्थिभिः उच्च शिक्षायाम् अन्यावसरः प्राप्तुं न शक्यते इति अवस्थां ध्यात्वा परिषदा गणित विषयः अनिवार्यः कृतोऽस्ति इति समाचारः।